इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः प्रोक्तवती यत् विश्वस्मिन् अस्थिरतायाः वातावरणे भारतम् आर्थिकसामाजिकराजनैतिकस्थिरतायाः स्तम्भत्वेन उदाहरणं प्रस्तूयते। प्रधानमन्त्रिणा नरेन्द्रमोदिना विश्वासो व्यक्तीकृतः यत् संसदः अर्थसङ्कल्पनासत्रं 47-2000 यावत् विकसितभारतकरणस्य लक्ष्यानुवाप्तये राष्ट्रे नवीनाम् ऊर्जां नवीनञ्च आत्मविश्वासं भरिष्यतीति। केन्द्रीयवित्तमन्त्रिणा निर्मलासीतारामन् इत्यनया श्वः आयव्ययसङ्कल्पनापत्रं सदने प्रस्तोष्यते। जम्मूकश्मीरस्य पुञ्छजनपदे सुरक्षाबलैस्सह सङ्घर्षे द्वौ आततायिनौ मृत्युमुपगतौ। अपि च 20-20 क्रिकेटस्पर्धायां भारत इङ्ग्लैण्ड देशयोः मध्ये पञ्चस्पर्धात्मकशृङ्खलायाः चतुर्थप्रतिस्पर्धा अद्य पुणेनगरस्य महाराष्ट्र क्रिकेट एसोसिएशन इति क्रीडाङ्गणे क्रीडिष्यते। अथ वार्ताः विस्तरेण। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः प्रोक्तवती यत् विश्वस्मिन् अस्थिरतायाः वातावरणे भारतम् आर्थिकसामाजिकराजनैतिकस्थिरतायाः स्तम्भत्वेन उदाहरणं प्रस्तूयते। राष्ट्रपतिना संसद्भवने अद्य लोकसभा राज्यसभा इत्यनयोः संयुक्तोपवेशने सम्बोधयन्त्या एवम् उदीरितं तथा विश्वासः प्रकटीकृतः यत् 47-2000 यावत् देशस्य भावियुवानः निश्चितरूपेण विकसितसुदृढसमृद्धभारतत्वेन समेधिष्यन्ते। श्रीमती द्रौपदी मुर्मुः प्रोक्तवती यत् अशेषे हि देशे प्रधानमन्त्री आवासयोजनायाः विस्तारस्य निर्णयो विहितः।
प्रधानमंत्री आवास योजना का विस्तार करते हुए 3 करोड़ अतिरिक्त परिवारों को नए घर देने का निर्णय लिया गया है। इसके लिए 5,36,000 करोड़ रुपया खर्च किए जाने की योजना है। जनजातीय समाज के 5 करोड़ लोगों के लिए धरती व जनजातीय ग्राम उत्कर्ष अभियान प्रारंभ हुआ है। इसके लिए 80,000 करोड़ रुपये का प्रावधान किया गया है।
राष्ट्रपति ने कथितम यत् धरती आबा जनजाति ग्रामोत्कर्धाभियानं 5 कोटि मितात्मकेभ्यः जनजातिजनेभ्यः समारम्भितः। राष्ट्रपतिना प्रोक्तं यत् तेषां सर्वकारेण आयुष्मान भारत योजनान्तर्गतं वरिष्ठनागरिकेभ्यः स्वास्थ्यलाभप्रदानाय निर्णयो विहितः।
इन्हें हर वर्ष 5 लाख रुपए का हेल्थ कवर मिलेगा। छोटे उद्यमियों के लिए मुद्रा ऋण की सीमा 2 लाख रुपए से बढ़कर 20 लाख रुपए कर दी गई।
संसदः उभयोः सदनयोः संयुक्ताधिवेशने राष्ट्रपति द्रौपदी मुर्मुः इत्यस्याः अभिभाषणम् अद्य मध्याह्नानन्तरं लोकसभा राज्यसभयोः संस्थापितः। लोकसभायाम् अध्यक्षेण ओम बिरला इत्यमुना देशस्य विकासे डॉ. मनमोहन सिंहस्य योगदानं प्रकाशितम्। सदनेन पूर्वप्रधानमन्त्रिणः डॉ. मनमोहन सिंहस्य परिवाराय सांसदानां भावपूर्णः प्रस्तावः अपि पारितः। अनन्तरं वित्तमन्त्रिणा सीतारामन् इत्यनया 24-25 वर्षयोः आर्थिकसर्वेक्षणमपि सदने प्रस्तावितम्। अतः परम् आदिनं सदनस्य कार्यजातं स्थगितम्। राज्यसभायामपि पूर्वप्रधानमन्त्रिणे डॉ. मनमोहन सिंहाय, हरियाणायाः पूर्वमुख्यमन्त्रिणे ओम प्रकाश चौटाला इत्यस्मै सहैव अन्येभ्यः 3 सदस्येभ्यः श्रद्धाञ्जलिः समर्पिता। इतः पूर्वमपि उभयोः सदनयोः अमेरिकायाः पूर्वराष्ट्रपतिने जेम्स अर्ल कार्टर जूनियर इत्यस्मै श्रद्धाञ्जलिः निवेदिता। प्रधानमन्त्रिणा नरेन्द्रमोदिना विश्वासो व्यक्तीकृतः यत् संसदः अर्थसङ्कल्पनासत्रं 47-2000 यावत् विकसितभारतकरणस्य लक्ष्यानुवाप्तये राष्ट्रे नवीनाम् ऊर्जां नवीनञ्च आत्मविश्वासं भरिष्यति। संसदः सङ्कल्पनासत्रारम्भात् प्राक् वार्ताहरान् सम्बोधयन् श्रीमोदी अवदत् यत् राष्ट्रं विकसितभारतस्य स्वकीयं सङ्कल्पं पूरयिष्यतीति।
मैं विश्वास से कह सकता हूं कि 2047 जब आजादी के 100 साल होंगे, विकसित भारत का जो संकल्प देश ने लिया है, ये बजट एक नया विश्वास पैदा करेगा।
प्रधानमंत्रिणा संसदः सर्वेपि सदस्याः विकसित राष्ट्र निर्माणाय तदर्थं योगदानाय च प्रार्थिताः।
बजट सत्र में सभी सांसद विकसित भारत को मजबूती देने के लिए अपना योगदान देंगे। विशेष करके जो युवा सांसद है उनके लिए तो सुनहरा अवसर है। मैं आशा करता हूं कि हम देश की आशा आकांक्षाओं के इस बजट सत्र में खरे उतरेंगे।
संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सम्मेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ओन् ए आई आर् चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। अथ महाकुम्भवार्ताः प्रयागराजतः। महाकुम्भे दुरापादितायाः दुर्घटनायाः कारणानां संज्ञानाय उत्तरप्रदेश प्रशासनेन गठितः न्यायिकायोगः अद्य प्रयागराजं सम्प्राप्तः। आयोगस्य सदस्याः संगमस्थलं सम्प्राप्य घटनायाः कारणानां परिस्थितेश्च निरीक्षणं विधास्यन्ति। बुधवासरे महाकुम्भस्य संगमक्षेत्रे घटितदुर्घटनायां 30 जनाः मृताः, 60 जनाश्च व्रणिताः सन्ति। भविष्यति एतादृशानां घटनायां पुनरावृत्तिम् अवरोद्धुं प्रस्तावैः सह आयोगः एकमासान्तरवर्तिकाले स्वकीयं प्रतिवेदनं प्रस्तोष्यति। अस्मद्वार्ताहरैः प्रोक्तं यत् उत्तरप्रदेशस्य मुख्यसचिवेन मनोजकुमारसिंहेन, आरक्षिमहानिदेशकेन प्रशान्तकुमारेण च ह्यः महाकुम्भे संगमस्थलस्य परिक्रमणपूर्वकं घटनास्थलस्य च निरीक्षणं कृतम्। वसन्तपञ्चम्याः तृतीयम् अमृतस्नानमुद्दिश्य उत्तरप्रदेशप्रशासनेन मेलाप्राधिकरणं सुनिर्दिष्टं यत् तत् शून्यत्रुटियुता व्यवस्था सुनिश्चयेदिति। एतदतिरिच्य सर्वाधिकसम्मर्दयुतक्षेत्रेषु अधिकाधिकवरिष्ठ आरक्षि अधिकारिणः सुरक्षाबलैः सह स्थेयुरित्यपि विनिर्दिष्टमस्ति। अपरत्र सीमावर्तिषु क्षेत्रेषु आरक्षि अधीक्षकस्तरीयाः अधिकारिणः नियोजयिष्यन्ति। अमृतस्नानकाले संगमक्षेत्रे अत्यधिकतया सम्मर्दः न भवेत्, सम्मर्दस्य अवरोधनेऽपि बलं दत्तमस्ति। अमृतस्नानकाले प्रयागराजः नो VIP जोन् इत्युक्ते नातिविशिष्टजनक्षेत्रत्वेन घोषितोऽस्ति। 25-2000 वर्षे वास्तविकसकलघरेलूत्पादे 6.4% यावद् वृद्धेः अनुमानं वर्तते। केन्द्रीयवित्तमन्त्रिणा निर्मलासीतारामन् इत्यनया अद्य संसदः उभयोः सदनयोः प्रस्तावितेन आर्थिकसर्वेक्षणेन इदम् अनुमानं स्फुटीभूतम्। आर्थिकसर्वेक्षणे एतत् प्रकाशितं यत् अर्थव्यवस्थायाः आधारः सुदृढः वर्तते। एतस्मिन् उल्लेखितं यत् देशेन कृषिकर्मणा सेवाक्षेत्रेण च समर्थितस्थिर आर्थिकविकासः प्रदर्शितः। प्रत्येकस्मिन् वर्षे सर्वकारः फरवरीमासस्य प्रथमे दिनाङ्के आयव्ययकस्य प्रस्तावनात् प्राक् आर्थिकसर्वेक्षणं प्रस्तौति। दिल्लीविधानसभानिर्वाचनाय 4 दिवसानाम् अवशिष्टे सति प्रचाराभियानेऽपि तीव्रता उष्णता च वरीवर्धते। नेतारः मार्गीययात्राभिः, जनसभाभिः, लघुसभाभिः, प्रतिद्वारं गमनैश्च प्रचाराभियाने संलग्नाः सन्ति। सर्वेषां दलानां वरिष्ठाः कनिष्ठाश्च नेतारः निर्वाचकं यावत् प्रापणस्य एकमपि मार्गम् अस्पृष्टं त्यक्तुकामाः न प्रतीयन्ते। प्रधानमन्त्री वरिष्ठस्य भाजपेति दलनेत्रा नरेन्द्रमोदी उक्तवान् यत् राष्ट्रियराजधानीक्षेत्रं देहलीति केन्द्रशासितराज्यमपि वाञ्छति यत् द्विगुणितचालकयुतप्रशासनं भवेदिति, येन जवेन नगरस्य समृद्धिः भवेत्। जम्मूकश्मीरस्य पूञ्छजनपदे सुरक्षाबलैः सह संघर्षे 2 आततायिनौ मृत्युमुपगतौ। सतर्कसैनिकबलेन गतदिने पुञ्छजनपदस्य खारी करमाराक्षेत्रे नियन्त्रणरेखोपरि भूरिशस्त्रयुतस्य आततायिदलस्य अवैधप्रवेशचेष्टा निराकृता। 20-20 क्रिकेटस्पर्धायां भारत इंग्लैण्ड देशयोः मध्ये पञ्चस्पर्धात्मकशृङ्खलायाः चतुर्थ प्रतिस्पर्धा अद्य पुणेनगरस्य महाराष्ट्र क्रिकेट एसोसिएशन इति क्रीडाङ्गणे क्रीडिष्यते। इति वार्ताः।